अथ सुन्दरकाण्डम् रामाय शाश्वत सुविस्तृत षड्गुणाय सर्वेश्वराय बलवीर्य महार्णवाय नत्वालिलङ्घयिषुरर्णवमुत्पपात निष्पीड्यतं गिरिवरं पवनस्य सूनुः चुक्षोभवारिधिरनुप्रययौ च शीघ्रम् यादोगणैः सह तदीयबलाभिकृष्टः वृक्षाश्च पर्वतगताः पवनेन पूर्वम् क्षिप्तोर्णवे गिरिरुदागमदस्य हेतोः श्यालोहरस्य गिरिपक्षविनाशकाले क्षिप्तोर्णवे समरुतोर्वरितात्मपक्षः हैमो गिरिः पवनजस्य तु विश्रमार्थम् उद्भिद्य वारिधिमवर्धदनेकसानुः नैवात्र विश्रमणमैच्छद विश्रमोऽसौ निःसीमपौरुषबलस्य कुतः श्रमोऽस्य आश्लिष्य पर्वतवरं सददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत्वमिच्छसि तदित्यमरोदितायाः आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्मात् देवानन्दयदुतस्मृतमेषु रक्षन् दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रम् देवाः प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहकाख्यम् लङ्कावनाय सकलस्य च निग्रहे स्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेदताशु निःसीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् लम्बे सलम्बशिखरे निपपातलङ्का प्राकाररूपकगिरावथ सञ्चुकोच भूत्वा बिडालसमितो निशितां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं सलङ्कां रुद्धो नयाश्वथ विजित्य च तां स्वमुष्टि पिष्टान्तयानुमत एव विवेशलङ्काम् मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले ददर्श शिंशुपा वृक्षमूलस्थितरमाकृतिम् नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् तादृक्चेष्टा समेताया अङ्गुलीयमदात्ततः सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः भूषणानि द्विधा भूत्वा तान्येवासंस्तथैव च अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते द्युलोकचारिणः सर्वे पश्यन्त्रिशय एव च तेषां विडम्बनायैव दैत्यानां वञ्चनाय च पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः आत्माविष्करणे चित्तं चक्रे मतिमतां वरः अथ वनमखिलं तद्रावणस्यावलुम्प्य क्षितिरुहमिममेकं वर्जयित्वाशु वीरः रजनिचरविनाशं काङ्क्षमाणोति वेलं मुहुरतिरवनादितोरणं चारुरोह अथाश्रुणोद्दशाननः कपीन्द्रचेष्टितं परम् दिदेश किंकरान् बहून् कपिर्निगृह्यतामिति समस्तशो विमृत्यवो वराद्धरस्य किंकराः समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् अशीतिकोटियूथपं पुरःसराष्टकायुतम् अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् समावृतस्तथायुधैः सताडितश्च तैर्भृशम् चकारतान् समस्तशस्तलप्रहारचूर्णितान् पुनश्च मन्त्रिपुत्रकान् सरावणप्रचोदितान् ममर्दसप्तपर्वतप्रभान्वराभिरक्षितान् बलाग्रगामिनस्तथा सशर्ववाक्सुगर्वितान् निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् अनौपमं हरेर्बलं निशम्य राक्षसाधिपः कुमारमक्षमात्मनः समं सुतं न्ययोजयत् स सर्वलोकसाक्षिणः सुतं शरैर्ववर्षः शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् स मण्डमध्यगासुतं समीक्ष्य रावणोपमम् तृतीय एष चांशको बलस्य हीत्यचिन्तयत् निधार्य एव रावणः स राघवाय नान्यथा यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते अतस्त योः समो मया तृतीय एष हन्यते विचार्य चैवमाशुतं पदोः प्रगृह्य पुप्लुवे स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् अपोथ यद्धरातले क्षणेन मारुते तनुः विचूर्णिते धरातले निजे सुते स रावणः निशम्य शोकतापितस्तदग्रजं समादिशत् अथेन्द्रजिन्महाशरैर्वरास्त्रसंप्रयोजितैः ततक्षवानरोत्तमं न चाशकद्विचालने अथास्त्रमुत्तमं विधेर्युयोज सर्वदुःसहम् स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः मया वरा विलङ्घिता ह्यनेकश स्वयम्भुवः समाननीय एव मे ततोऽत्र मानयाम्यहम् इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः इतिह लक्ष्यमेव मे स रावणश्च दृश्यते इदं समीक्ष्य बद्धवत्थितं कपीन्द्रमाशुते बबन्धुरन्यपाशकैर्जगामचास्त्रमस्य तत् अथ प्रगृह्यतं कपिं समीपमानयंष्टते निशाचरेश्वरस्य तं सपृष्टवांश्च रावणः कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् इतीरितः स चावदत् प्रणम्य राममीश्वरम् अवैहि दूतमागतं दुरन्तविक्रमस्य माम् रघुत्तमस्य मारुतिं कुलक्षयेतवेश्वरम् न चेत्प्रदास्यसि त्वरन् रघुत्तमप्रियां तदा सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि न रामबाणधारणे क्षमाः सुरेश्वरा अपि विरिञ्च शर्वपूर्वकाः किमु त्वमल्पसारकः प्रकोपितस्य तस्य कः पुरःस्थितौ क्षमो भवेत् सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः इतीरिते वधोद्यतं न्यवारयद्विभीषणः स पुच्छदाः कर्मणि न्ययोजयन्निशाचरान् अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ददुर्ददाहनास्य तन्मरुत्सखो हुताशनः మమర్ష సర్వచేష్టితం సరక్షసాం నిరామయః బలోద్ధతశ్చ కౌతుకాత్ ప్రదగ్ధుమేవ తాం పురీం దదాహ చాఖిలాం పురీం స్వపుచ్ఛగేన వన్నినా కృతిస్తు విశ్వకర్మణోప్యదహ్యతాస్య తేజసా సువర్ణరత్నకారితాం సరాక్షసోత్తమైః సహ ప్రదహ్య సర్వతః పురీం ముదాన్వితో జగర్జత స రావణం సపుత్రకం తృణోపమం విధాయ చ తయోః ప్రపశ్యతో పురీం విధాయ భస్మసాద్యయౌ విలంఘ్య చార్ణవం పునః స్వజాతిభిః ప్రపూజితః ప్రభక్ష్య వానరేషితుర్మధు ప్రభుం సమేయివాన్ రామం సురేశ్వరమగణ్య గుణాభిరామం సంప్రాప్య సర్వకపివీరవరైః సమేతః చూడామణిం పవనజః పదయోర్నిధాయ సర్వాంగకైః ప్రణతిమస్య చకార భక్త్యా రామోపి నాన్యదనుదాతుమముష్య యోగ్యం అత్యంత భక్తిభరితస్య విలక్ష్య కించిత్ స్వాత్మప్రదానమధికం పవనాత్మజస్య కుర్వన్ సమాశ్లిషదముం పరమాభితుష్టః ఇతి శ్రీమదానందతీర్థ భగవత్పాదాచార్య విరచితే శ్రీమన్మహాభారత తాత్పర్య నిర్ణయే సప్తమోధ్యాయః